दशमहाविद्या यथा चामुण्डातन्त्रे काळीतारा महाविद्या षोडशी भुवनेश्वरी भैरवी चिन्नमस्ता च विद्याधूमावती तथा बगला सिद्धविद्या च मातङ्गी कमलात्मिका एतादशमहाविद्याः सिद्धविद्याः प्रकीर्तिताः श्रीकाळी गायत्री ॐ काळिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नो घोरा प्रचोदयात् काळी मन्त्रः ॐ क्रीं 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 ह्रीं ह्रीं हूं हूं दक्षिणे काळिके क्रीं 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 ह्रीं ह्रीं हूं हूं स्वाहा।
श्रीकाळी कर्पूरस्तोत्रम् कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरे तत्त्रिपुरहरवधू त्रिकृतं ये जपन्ति तेषां गद्यानि पद्यानि च मुखकुहरात् उल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधररुचि रुचिरे सर्वसिद्धिं गतानाम् ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्बुजाक्षी वृन्दं चन्द्रार्धचूड प्रभवति स महाघोरबालावतंसे ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो बीजं त्वे द्वन्द्वमन्यद्विगलितचिकुरे काळिके ये जपन्ति द्वेष्टारं ग्रन्थि ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्द्वास्त्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथादः सव्ये चाभीर्वरं च त्रिजगदगहरे दक्षिणे कालिके च जप्त्वै तन्नाम एवा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ करस्थाः प्रकटितरदने सिद्धयस्त्र्यम्बकस्य वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्रयं कूर्चयुग्मं लज्जाद्वन्द्वं च पश्चात् स्मितमुखितददष्टद्वयं योजयित्वा मातर्ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते लक्ष्मीलास्यलीला कमलदलदृशः कामरूपा भवन्ति प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रां सुबिम्बे वाग्देवी देवी मुण्डस्रगतिशयलसत्कण्टिपीनस्तनाड्ये गतासूनां बाहुप्रकरकृतकाञ्ची परिलसन् नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनां श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिखरैः परं सङ्कीर्णायां प्रकटितचितायां हरवधूं प्रविष्टां सन्तुष्टाम् उपरि सुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि न तेषां परिभवः वदामस्ते किं वा जननि वयमुच्यैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमं तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः समन्तादापीनस्तनजगनदृग्यौवनवती रतासक्तो नक्तं यदि जपति भक्तस्तव मनुं विवासस्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः समासुस्तीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशय महाकालसुरतां तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहरवधू सिद्धिनिवहाः प्रसूते संसारं जननि जगतीं पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीं अनेके सेवन्ते भवदधिकगीर्वाणनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् समाराध्याम् आद्यां हरिहरविरिञ्च्यादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरसमहानन्दनिरतां धरित्रीकीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालिसकलं श्रुतिः का ते मातर्निजकरुणया मामगतिकं प्रसन्ना त्वं भूया भवमनुन भूयान् मम जनुः श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वर्काणां निजगलितवीर्येण कुसुमं जपं स्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो महाकाली स्वैरं स भवति धरित्री परिवृढः गृहे सम्मार्जन्या परिगलितवीर्यं हि चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने समुच्चार्य प्रेम्णा मनुमपि सकृत्कालि सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरोध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुं स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः पर्यन्ते परमपदलीनः प्रभवति त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरतां समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो योऽध्याये त्वामयि जननि स स्यात् स्मरहरः सलोमास्ति स्वैरं फललमपि मार्जारमसि ते परञ्चौष्ट्रं मैषं नरमहिषयोश्चागमभिवा बलिं ते पूजाया मयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति वशीलक्षं मन्त्रं प्रजपति अविश्याशनरतो दिवा मातर्युष्मच्चरणयुगलभ्याननिपुणः परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतं निषार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः पुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः इति श्रीमहाकालविरचितस्वरूपाख्यं श्रीकालीकर्पूरस्तोत्रं समा